एस रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः सर्वकारेण काष्ठमण्डपु उपत्यकायाः नदीनाम् तटीय क्षेत्रेषु संकटग्रस्त सार्वजनिक स्थलेषु सर्वकारीय भूमिषु च अनधिकृतरूपेण विद्यमानानाम् वसतीनाम् रिक्तीकरणस्य कार्यम् विधीयमानम् वर्तते। सर्वकारेण सार्वजनिक सूचनाम् प्रकाश्य अनधिकृत वसतीनाम् अपसारणस्य कार्यस्य अभियानस्य अन्तर्गतम् पूर्वेद्युः काष्ठमण्डप महानगरपालिकायाः एकादश वडाक्षेत्रस्य थापाथली स्थानस्य नवम वडाक्षेत्रस्य गैरीगाउँ स्थानस्य च वसतयः अपसारिताः वर्तन्ते। एवमेव काष्ठमण्डप महानगरपालिकायाः एकत्रिंश वडाक्षेत्रस्य शान्तिनगरस्य वसतेः अपसारणस्य कार्यम् विद्यमानमस्ति। कागेश्वरी मनोहरा नगरपालिकायाः अष्टम वडाक्षेत्रस्य गोठाटार स्थानस्य बुद्ध चतुष्पथस्य अथ च मनोहरा वसतेः अनधिकृत वसतीनाम् रिक्तीकरणाय पूर्व कार्यम् विहितमस्तीति शिक्षा विज्ञान प्रविधि मन्त्रिणः सर्वकारस्य प्रवक्तुश्च सस्मित पोखरेलस्य सचिवालयेन ज्ञापितम् वर्तते। अत्रान्तरे भक्तपुरस्य मनोहरा वसतेः कतिपय भूम्यावासविहीनाः जनाः अनधिकृत वसतिम् स्वयमेव त्यक्तवन्तः सन्ति। सार्वजनिक भूम्याः व्यक्तेः भूम्याश्च अतिक्रमणम् कृत्वा तत्र निर्मितानाम् संरचनानाम् रिक्तीकरणस्य अपसारणस्य च कार्यस्य प्रारम्भानन्तरम् मध्यपुर ठिमी नगरपालिकायाः प्रथमवडा क्षेत्रस्य लोकन्थली मनोहरा तटीय क्षेत्रे निवसन्तो भूम्यावास विहीनत्वेन प्रथिताः जनाः स्वयमेव वसतिम् त्यक्त्वा गताः सन्ति। भक्तपुर जनपद प्रहरी परिसरस्य प्रहरी उपरीक्षकः सूर्यबहादुर खड्का मनोहर वसतेः प्रतिशतम् अशीत्या जनैः स्वयमेव अनधिकृत वसतिः त्यक्तास्तीति असूचयत्। ह्य सायमेव मनोहरा वसतेः रिक्तीकरणस्य कार्यम् प्रारब्धमासीत्। तत्क्रमे अनधिकृत वसतौ निवसताम् जनानाम् शिलादि प्रहारेण द्वाविंशतिः सुरक्षाकर्मिणः आताश्च वर्तन्ते इति भक्तपुर प्रहरी प्रमुख खड्का असूचयत्। अद्य प्रातः कालादेव पुनः संरचनानाम् त्रोटनस्य कार्यम् विधीयते इति असौ असूचयत्। अनधिकृत वसतिषु निवत्सत्सु भूम्यावासविहीनेषु जनेषु थापाथली स्थानस्य अष्टाषष्ठी गृहपरिवाराः सर्वकारस्य सम्पर्के आगताः सन्ति। अन्येषाम् जनानामपि सम्पर्के आगमनस्य क्रम सञ्चलन अस्तीति च ज्ञापितम् वर्तते। सर्वकारेण अनधिकृत वसतिषु निवसत्सु जनेषु मध्ये वस्तुतः ये भूम्यावासविहीना सन्ति तान् निश्चित्य तादृश परिवाराणाम् सप्ताहद्वयस्य अभ्यन्तरे नागार्जुन नगरपालिकायाः प्रथमवडा क्षेत्रस्य सर्वकारीय भवने व्यवस्थापनाय पूर्व कार्यम् विहितम् वर्तते। वसतीनाम् अपसारणस्य क्रमे नेपाल प्रहरिणा महानगरस्य सुरक्षाकर्मिभिश्च सहयोग प्रदीयमानो वर्तते। एकोनशीत्यधिक द्विसहस्रतमे विक्रमवर्षे बागमती सभ्यतैकीकृत विकास समित्या निर्मितस्य प्रतिवेदनस्य अनुसारेण उपत्यकायाः नदीतटीय क्षेत्रे सहस्रत्रयम् षण्णवत्यधिक शतचतुष्टयम् च गृहपरिवाराः निवसन्तः सन्ति। तेषु काष्ठमण्डप महानगरस्य अभ्यन्तरे सहस्रद्वयम् पञ्चचत्वारिंशदधिक शतद्वयम् च कागेश्वरी नगरपालिकायाम् नवतिः बुढानीलकण्ठ नगरपालिकायाम् षट्पञ्चाशदधिकैकशतम् ललितपुर महानगरस्य अभ्यन्तरे सप्तदश भक्तपुर नगरपालिकायाम् त्रिसप्तत्यधिक सप्तशतम् च गृहपरिवाराः निवसन्तः सन्ति। अत्रान्तरे पोखरा महानगरपालिकया महानगर क्षेत्रस्य अभ्यन्तरे विभिन्न स्थानेषु सार्वजनिक भूम्याम् असूचीकृतायाम् च भूम्याम् अनधिकृतरूपेण निर्मिताः संरचनाः पञ्चत्रिंशतो दिनानाम् अभ्यन्तरे अपसारयितुम् निर्दिष्टम् वर्तते। महानगरेण सूचनाम् प्रकाश्य अनुमतिम् विना उच्च व्यक्तिनाम् सम्पर्कस्य माध्यमेन अधिगृहीताया भूमेः तत्र निर्मितानाम् संरचनानाम् च रिक्तीकरणाय उक्तम् अस्ति। सार्वजनिक भूमिषु दीर्घकालात् विभिन्न व्यक्तिभिः संस्थाभिश्च संरचनाम् निर्माय तत्र कार्यालयानाम् सञ्चालनम् भाटके तादृश संरचनानाम् प्रदानम् परिधिम् निर्माय भूमेः स्वामित्व ग्रहणाय प्रयासश्चेति कार्याणि जायमानानि सन्तीति जनवेदनायाः वर्धनात् एवम् कार्यम् अग्रे सारितमस्तीति महानगरेण स्पष्टीकृतम् वर्तते। वीरगंज महानगरपालिकया मुख्यमार्गस्य विस्तारस्य क्रमे पूर्णरूपेण भूम्यावा भूम्यभावावस्थां प्राप्तानां नागरिकाणां विवरणस्य संकलनं तेभ्य सहयोग प्रदानस्य उद्देश्येन विधीयमानं वर्तते। महानगरपालिकया परह्यः बृहस्पतिवासरे सूचनां प्रकाश्य राजमार्गस्य वाम दक्षिण भागयोः प्रतिदिशं 25 मीटर परिमित क्षेत्रस्य विस्तारस्य क्रमे पूर्णरूपेण भूम्यभावावस्थां प्राप्तेभ्यो नागरिकेभ्य सहयोग प्रदानस्य उद्देश्येन पीड़ित नागरिकाणां विवरणस्य संकलनम् विद्यमानम् अस्ति। महानगरपालिकया प्रभाविताः सर्वे नागरिकाः 30 दिनानाम् अभ्यन्तरे आवश्यक प्रपत्रेण सह स्वस्य विवरणम् अर्पयितुम् अनुरुद्धाः सन्तीति नगर प्रमुख राजेश मानसिंह असूचयत्। विपज्जन्यासु विभिन्न घटनासु निपत्य अस्मिन् द्वादशसु दिनेषु एव 23 जना मृताः सन्ति। राष्ट्रिय विपद संकट न्यूनीकरण व्यवस्थापन प्राधिकरणस्य अनुसारेण वैशाखस्य प्रथम दिवसात् द्वादशम दिवसम् यावत् 22-17 विपद घटनासु निपत्य एतावताम् जनानाम् मृत्यु सम्भूतोऽस्ति। प्राधिकरणस्य प्रवक्तुः शान्ति महत इत्यस्य अनुसारेण एताभ्यः घटनाभ्यः 73 जना हताः 27.5% परिवाराः प्रभाविताश्च वर्तन्ते। प्रवक्तो मत इत्यस्याः अनुसारेण अग्निदाह वज्रपात झञ्झावात नौ दुर्घटनासु एतावताम् जनानाम् मृत्युः सम्भूतोऽस्ति। जलवायोः परिवर्तनेन सहैव ह्यो देशस्य विभिन्नेषु जनपदेषु वृष्टिः सम्भूतास्ति। जलवायु विज्ञान विभागेन प्रदत्तायाः सूचनायाः अनुसारेण पूर्वेद्युः लमजुङ रोल्पा प्युठान काभ्रेपलाञ्चोक जनपदेषु भीषण वृष्टेः मापनं विहितम् आसीत्। विभागस्य जलवायुविदः विनु महर्जन इत्यस्य अनुसारेण ह्यस्तन दिवसा वृष्टेः प्रारभणेन उष्णवायोः प्रवाहे न्यूनता आगतास्ति। अयं क्रमः अद्यापि स्थास्यति। सम्प्रति नेपाले पश्चिम वायोः स्थानीय वायुश्च आंशिक प्रभावोऽस्तीति विभागेन ज्ञापितं वर्तते। विभागस्य अनुसारेण अद्य स्वश्च कोशी मदेश बागमती गण्डकी प्रदेशानां देशस्य पर्वतीय क्षेत्राणां हिमालयीय क्षेत्राणां च भूभागेषु कतिपय स्थानेषु मध्यम वृष्टेः सम्भावना वर्तते।